एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अस्यैव मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानस्य उपनिर्वाचनस्य कृते ह्यः सम्बद्ध निर्वाचनाधिकृत कार्यालयेषु उत्साहजनक रूपेण शान्तिपूर्ण रूपेण च प्रत्याशिनाम् मनोनयन पत्रस्य पञ्जीकरणम् सम्भूतमस्तीति निर्वाचन आयोगेन ज्ञापितम् वर्तते। आयोगस्य अनुसारेण विभिन्नानाम् चतुश्चत्वारिंशतः पदानाम् कृते दशाधिक शतचतुष्टयेन प्रत्याशिभिः मनोनयन पत्रस्य पञ्जीकरणम् कृतम् वर्तते। प्रत्याशिनाम् मनोनयन पत्रस्य पञ्जीकरणस्य पश्चात् सूची प्रकाशनानन्तरम् अद्य पूर्वाह्नस्य दशवादनात् अपराह्नस्य त्रिवादनम् यावत् प्रत्याशिनाम् विरूद्धे विरोधपत्रम् प्रदातुम् समयः निर्धारितोऽस्ति। विरोधपत्रम् प्राप्तम् सद् तदुपरि अनुसन्धानम् विधाय निर्णीय अद्यैव सायम् षड्वादनम् यावत् प्रत्याशिनाम् नामावल्याः प्रकाशनस्य कार्यक्रमः निर्वाचनायोगेन निर्धारितो वर्तते। तथैव परस्व पञ्चमे दिवसे प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनस्य प्रत्याशिभ्यो निर्वाचन चिन्ह प्रदानस्य च कार्यक्रमः निर्धारितोऽस्तीति आयोगस्य प्रवक्ता नीता पोखरेलः असूचयत्। सैव अस्यैव मार्गशीर्ष मासस्य षोडशे दिवसे रविवासरे प्रातः सप्तवादनात् अपराह्नस्य पञ्चवादनम् यावत् सम्बद्ध मतदान केन्द्रेषु मतदानम् भविष्यति इत्यतः मतदाने सहभागी भूत्वा स्वस्य मताधिकारम् प्रयोक्तुम् सम्बद्ध सर्वे मतदातारः निर्वाचनायोगेन आहूताः वर्तन्ते। पूर्वसभामुखः दमननाथ ढुङ्गाना 83 वर्षाणाम् वयसी ह्यः दिवंगतोऽस्ति। वानेश्वरवर्तिनी फ्रन्टलाइन चिकित्सालये उपचारस्य क्रमे ह्यः दिवासार्धैकवादने पूर्वसभामुखः ढुङ्गाना दिवंगता इति तदीयोपचारकः चिकित्सकः डाक्टर रुद्र शर्मा अज्ञापयत्। वरिष्ठाधिवक्ता च पूर्वसभामुखः ढुङ्गाना यकृत सम्बद्ध समस्याग्रस्तो भूत्वा कतिभिश्चित दिनेभ्य उपचाररतः आसीत्। 48-2000 विक्रम वर्षे काष्ठमण्डप द्वितीय निर्वाचन क्षेत्रात् नेपाली कांग्रेस दलस्य पक्षतः प्रतिनिधि सभायाम् निर्वाचितः ढुङ्गाना 48-2000 विक्रम वर्षात् 150-2000 विक्रम वर्षम् यावत् सभामुख पदे स्थितः आसीत्। नेपालस्य प्राजातान्त्रिकान्दोलने महत्वपूर्ण योगदान प्रदत्तवान् ढुङ्गाना राजनीतिकान्दोलनस्य क्रमे भूयो भूय कारावास जीवनम् यापितवान् आसीत्। राष्ट्रपतेः रामचन्द्र पौडेलेन पूर्वसभामुखस्य दमननाथ ढुङ्गाना विदस्य निधनम् प्रति श्रद्धाञ्जलि व्यक्तोऽस्ति। ह्यः सामाजिक सञ्जालस्य माध्यमेन राष्ट्रपतिना पौडेलेन ढुङ्गानाम् प्रति श्रद्धाञ्जलिम् अभिव्यज्य शोकाकुल परिवारजनेषु समवेदना च प्रकटिता वर्तते। तथैव प्रधानमन्त्रिणा केपी शर्मा ओलिना च पूर्वसभामुखस्य ढुङ्गाना विदस्य निधनम् प्रति श्रद्धाञ्जलि प्रकटितोऽस्ति। तथैव प्रधान न्यायाधीशेन प्रकाशमान सिंह रावत इत्यनेन नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविधेन च पूर्वसभामुखस्य ढुङ्गाना विदस्य निधनम् प्रति श्रद्धाञ्जलि व्यक्तो वर्तते। अत क्रमे नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन नागरिकान्दोलनस्य अग्रणी नेत्रा दमननाथ ढुङ्गाना विधेन राजनीतिक सामाजिक परिवर्तने प्रापितम् योगदानम् नेपालेन नेपाली जनतया च सदैव स्मरणम् करिष्यते इति उक्तमस्ति। प्रधानमन्त्रिणा केपी शर्मा ओलिना चिकित्सा शिक्षा क्षेत्रे दृष्टानाम् समस्यानाम् समाधानाय यः चिकित्सा शिक्षा योगस्य पदाधिकारीभिः विमृष्टम् वर्तते। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये यः सम्भूते विमर्शने सर्वकारीय चिकित्सालय महाविद्यालयेषु निर्धारितानुसारेण अध्ययन शुल्कस्य छात्रवृत्त्यश्च व्यवस्थापनाय विमर्शः सम्भूतः आसीत्। स्वदेशे एव सहजाम् गुणस्तरीयाम् च चिकित्सा शिक्षाम् प्रदापयितुम् उत्पादित दक्ष जनशक्तिभ्यः स्वास्थ्य संस्थासु वृत्तिपार्जन प्रदानस्य वातावरणम् सृष्ट्वा देशस्य समृद्धौ योगदानम् कथम् दातुम् शक्यते चेति विषयेषु विमर्शनम् केन्द्रितम् आसीत्। तदवसरे स्वास्थ्य परिचारिका शिक्षायाम् प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषदा सम्बन्धन प्राप्त संस्थासु सहज प्रवेशनस्य विषये प्रधानमन्त्रिणा ओलिना अभिरूचि प्रकटिता आसीत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति पौरस्य दर्शनं ज्ञानस्य परम्परायाश्च स्रोतोऽस्तीति चर्चयन् पौरस्य सभ्यतायाम् अनेकासां संस्कृतीनाम् ऐक्यबद्धता द्रष्टुं शक्यते इति सूचयति। ब्रह्मकुमारी ज्ञान सरोवर शिक्षालयस्य ह्यः नगरकोटस्थाने उद्घाटनं विदधाना राष्ट्रपतिः पौडेलः मनुष्येषु मित्रतायाः प्रेम्णः सद्भावस्य साहसित्वस्य च पवित्राणां विचाराणां सृष्टे आवश्यकता अस्ति इति प्रावोचत्। राष्ट्रपति पौडेलः विश्वं भौतिक विकासस्य अभिलाषा प्रतिस्पर्धा च वर्धमाना अस्ति इत्यतः समाजे शान्ते सुव्यवस्थायाः सद्भावस्य सहयोगस्य च भावना क्षीयमाणा अस्ति इति अगदत्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा भासते देशस्य विकासाय उन्नत समाजस्य निर्माणाय च शिक्षा क्षेत्रस्य विकास आवश्यको वर्तते। कैलाली जनपदस्य गौरी गंगा नगरपालिका वर्तिनः चोमाल बहुमुखी महाविद्यालयस्य नवनिर्मित भवनस्य उद्घाटन विदधान सभापति देउवा शिक्षा क्षेत्रस्य विकासाय निवेशस्य वर्धनं समीचीनम् अस्ति इति अगदत्। यैव सभापति देउवा प्रसिद्ध धार्मिक स्थले बेहडा बाबा मन्दिरे पूजार्चने व्यदधात्। गृहमन्त्री रमेश लेखक यातायात साधनानां दुर्घटनायाः न्यूनीकरणाय सर्वान् निकायान् दायित्ववाहितया कार्यं विधातुं निर्दिशति। ह्यः गृहमन्त्रालये आयोजिते यातायात साधन दुर्घटना संकट न्यूनीकरण सम्बन्धे विमर्शने गृहमन्त्री लेखक यातायात साधनेषु क्षमताधिकानां यात्रीणाम् आरोहणं रोद्धुं तीव्रतया यानानां सञ्चालकान् चालकान् विधेयक अनुसारेण दण्डयितुं मार्ग सुधार कार्य सक्रियतां वर्धयितुं च सम्बद्धान् निकायान् निर्दिशत। उपवेशे मन्त्री लेखक भौतिक पूर्वाधार यातायात मन्त्रालयस्य सचिव केशव कुमार शर्मा प्रहरी महानिरीक्षक वसन्त बहादुर कुंवर सशस्त्र प्रहरी महानिरीक्षक राजु अरियाल नेपाली सेनाया उपरथि प्रेमध्वज अधिकारी यातायात व्यवस्था विभागस्य महानिर्देशक राजीव पोखरेल मार्ग विभागस्य प्रमुख राकेश महर्जन च सहभागिनः आसन्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं विभिन्नानां चतुर्णां देशानां राजदूतैः पदगोपनीयतयोः शपथः गृहीतोऽस्ति। शीतलनिवास वर्तिनि राष्ट्रपति कार्यालये ह्यः आयोजिते समारोहे पाकिस्तान देशस्य कृते रीता धीतालः कतार देशस्य कृते रमेशचन्द्र पौडेलः इजरायल देशस्य कृते प्राध्यापकः धनप्रसाद पण्डितः चीन देशस्य कृते कृष्णप्रसाद ओली च राजदूत पदस्य शपथं गृहीतवन्त। तदवसरे सर्वकारस्य उच्चपदस्थाधिकारिणः सहभागिनः आसन्। अत्रान्तरे राष्ट्रपतिना पौडेलेन विभिन्नानां शरणां देशानां कृते राजदूताः नियुक्ताः सन्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः परामर्शेन जर्मनी देशस्य कृते डाक्टर शैल रूपा खेती रूस देशस्य कृते जंगबहादुर चौहान बेलायत देशस्य कृते चन्द्र कुमार घिमिरे सऊदी अरब विया देशस्य कृते नरेश विक्रम ढकालश्च नियुक्ताः वर्तन्ते। एवमेव राष्ट्रपति पौडेल थाइल्याण्ड देशस्य कृते आवासीय राजदूतं धनबहादुर ओलीनां कम्बोडिया देशस्य सिंगापुर देशस्य च कृते आवासीयतर राजदूत पदे च नियुक्तवान् अस्ति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। सिकलसेल रोगस्य उपचाराय दाङ जनपदस्य राप्ती स्वास्थ्य विज्ञान प्रतिष्ठाने पृथक कक्ष स्थापितो वर्तते। ह्यस्तनात् दिवसात् प्रतिष्ठाने प्रवेशं लब्धा रात्रौ निवसनार्थं दशानां शय्यानां दिवा उपचारे च पञ्चशय्यानां कक्ष स्थापितोऽस्तीति प्रतिष्ठानस्य उपकुलपति डाक्टर विकास लामिस्थाने असूचयत। अनेन सैव थारू समुदायस्य प्रमुख स्वास्थ्य समस्याया रूपेण विद्यमानस्य सिकल सेल रोगस्य उपचाराय द्वौ कक्षौ स्थापितौस्त। एतत्पूर्वं नेपालगंज वर्तिनी भेरी चिकित्सालये अस्य रोगस्य उपचाराय स्वास्थ्य कक्षस्य स्थापना विहिता आसीत्। वंशानुगत सिकल सेल रोग थारू समुदायस्य प्रमुख स्वास्थ्य समस्याया रूपेण विद्यमानो वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण सिकलसेल रोगेण थारू समुदायस्य प्रतिशतं द्वादशजना पीडिता वर्तन्ते।